इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य ओडिशा राज्यस्य एकदिवसीय यात्रायां भविष्यति। स्वयात्रायां प्रधानमन्त्री झारसुगुडातः 60,000 कोटिरूप्यकाणां बहुविध विकास परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। एताः परियोजनाः दूरसञ्चारक्षेत्रे, रेलमार्गे, उच्चशिक्षायां, स्वास्थ्यसेवायां, कौशलविकासक्षेत्रे, ग्रामीण आवास इत्यादिषु विविधेषु क्षेत्रेषु विस्तृताः सन्ति। अस्मिन् अवसरे श्रीमोदी सार्वजनिकसभाम् अपि सम्बोधयिष्यति। दूरसञ्चारसम्पर्कस्य क्षेत्रे प्रधानमन्त्री स्वदेशी तन्त्रज्ञानेन प्रायः 37,000 कोटिरूप्यकाणां व्ययेन निर्मितानां 27,500 तोप्यधिकान् मोबाइल 4G टावर्स इत्येतेषाम् उद्घाटनं करिष्यति। अस्मिन् भारत संचार निगम लिमिटेड BSNL संस्थया नियोजिताः 6,20,000 तोप्यधिकानि 4G प्रौद्योगिक स्थलानि सन्ति। अवसरेऽस्मिन् प्रधानमन्त्री ओडिशा राज्यस्य बेहरामपुर, गुजरातस्य सूरत नगरे उधना नगरयोः मध्ये अमृत भारत एक्सप्रेस रेलयानं हरितध्वजम् अपि प्रदर्शयिष्यति। प्रधानमन्त्री नरेन्द्रमोदी ह्यः प्रोक्तवान् यत् प्रशासनेन महिलाकेन्द्रिताः बहव्यः योजनाः कार्यक्रमाश्च प्रचालिताः। एतैः कार्यक्रमैः समाजस्य सर्वेऽपि वर्गाः लाभान्विताः सञ्जाताः। बिहारराज्ये मुख्यमन्त्री महिलारोजगारयोजनायाः शुभारम्भावसरे नवदिल्लीतः दृश्याङ्कनमाध्यमेन भाषमाणः श्रीमोदी अवदत् यत् केन्द्रसर्वकारः तथैव बिहारस्य मुख्यमन्त्रिणः नीतीशकुमारस्य सर्वकारश्च एकीभूय महिलाकल्याणार्थं कार्यरतौ स्तः। प्रधानमन्त्रिणा समुद्घोषितं यत् अस्याः योजनायाः अन्तर्गतं 75,00,000 महिलाः स्वबैंक कोषेषु साक्षात् 10,000 रूप्यकाणां लाभम् अवाप्नुवन्। तेनोदीरितं यत् अस्याः योजनायाः आधारः 11 वर्षेभ्यः पूर्वं प्रधानमन्त्री जनधन योजनामाध्यमेन प्रतिष्ठापितः। सः सबलं प्रोक्तवान् यत् भ्रष्टाचारं विना साहाय्य राशिः साक्षात् महिलानां बैंक लेखासु प्रेषयिष्यते। राष्ट्रिय अन्वेषण अभिकरणेन NIA इत्यनेन कश्मीरोत्पत्यकायां भयोत्पादक गतिविधीनां प्रोत्साहनाय प्रतिबन्धितस्य संघटनस्य सक्रिय आतंकीनां कृते शस्त्राणां विस्फोटकानां आपूर्तौ संलग्नः हिजबुल मुजाहिद्दीन इत्यस्य एकस्य आतंकिनः समस्त सम्पत्तयः बाधिताः। जम्मूनगरस्य NIA विशिष्ट न्यायालयस्य आदेशानुसारं अभिकरणेन अस्मिन् वर्षे अप्रैल मासे गृहीतस्य आरोपपत्रितस्य अभियुक्तस्य तारिख अहमद मीर इत्यस्य समग्र सम्पत्तयः स्वीकृतः। स्वास्थ्य परिवार कल्याण मन्त्री JP नड्डा ह्यः नवदिल्ल्यां कार्यकारी संचालन समित्याः द्वितीय सभायां राष्ट्रिय एक स्वास्थ्य अभियानस्य NOHM इत्यस्य प्रगतिं समीक्षितवान्। श्रीनड्डा मनुष्याणां, पशूनां, पादपानां, पर्यावरणस्य च स्वास्थ्यस्य परस्पर सम्बन्धस्य परिचये NOHM इत्यस्य भूमिकायाः उपरि बलं प्रदत्तवान्। मन्त्रिणा उक्तं यत् केवलं मिलित्वा कार्याणां सम्पादनेन एव भविष्ये विभीषिकानां पूर्वानुमानं निवारणं च कर्तुं शक्यते। पुरुषाणां 20-प्रति 20 एशिया चषक प्रतिस्पर्धायां दुबईनगरे भारत श्रीलंकादेशयोः मध्ये अन्तिमा सुपर फोर क्रीडायाः अन्तर्गतं गतसायं सुपर ओपर ओवर इत्यनया पद्धत्या भारतेन विजयं प्राप्तम्। निर्णायक स्पर्धा तावत् भारत पाकिस्तान देशयोः मध्ये श्वः भविष्यति। इति वार्ताः।